ममद्विताराष्ट्रम् क्षत्रियस्य विश्वाजोर्विश्वे अमृतायथानः क्रतुम् सजन्ते वरुणस्य देवाराजा विकृष्टेरुपमस्य भव्रेः अहम् राजा वरुणो मह्यन्तान्यसुर्याणि प्रथमाधारयन्त क्रतुम् सचन्ते वरुणस्य देवा राजा विकृष्टेरुपमस्य भौरेः अहमिन्द्रो वरुणस्ते महित्वोर्वेगभीरे रजसि सुमेके त्वष्टे भविष्वा भुवनानि विद्वान् समैरजम् रोदसि धारयन् च अहमपो अपिन्वमुक्षमाणाधारयन् दिवम् सदनऋतस्य ऋतेन पुत्रो अदितेररतापोथ त्रिधातु प्रथयद्विभौम मान्नरस्वश्वा भाजयन्तो माम् वृताः समरणे हवन्ते कृणोम्याजिम् मघवाहमिन्द्र इयर्म् विरेणुमभिभोद्योजाः अहन्ता विश्वा चकरन्नकर्मादैव्यम् सहो वरते अप्रतीतम् यन्मासो मासो मम दन्यदुःखो भेभजे ते रजसि अपारे विदुष्टे विश्वा भुवनानि तस्य ताप्रब्रवीषि वरुणाय वेधः त्वम् व्रत्राणि शृण्विषे जघन्वान् त्वम् व्रताम् अरिणा इन्द्रसिन्धोन् अस्माकमत्र पितरस्त आसन् सप्तर्षयो दौर्गहे मध्यमाने त आजजन् तत्र सदस्युमस्या इन्द्रन्न व्रत्रतुरमर्थदेवम् पुरुगुच्छानेहि वामदा षद्धव्येभिरिन्द्रावरुणानमोभिः अथा राजानन्द्रसदस्युमस्यावृत्रहणम् ददधुरर्धदेवम् राजा वयम् ससवाम् सोमदेमहव्येन देवायवसेन गावाः तान्धेनुमिन्द्रावरुणाजुमन्नो विश्वाः धत्तमनपस्फुरन्ति